सर्वेभ्यो नमः. यः विषयः प्रवर्तमानः अस्ति सः अस्ति आत्मनिपदी धातूनां परिचयः कथारूपेण. तत्र भ्रातृमेलनम् इति कथा अस्ति, तां कथां पठन् स्मः वयं. तत्र हा गतवर्गे कोऽपि स्मरति वा यावत्पर्यन्तं वयं गतवन्तः इति? कुत्र भगिनी उषा भगिनी यावत्?
तदा भीमसेनः ब्रूते, अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि, त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति.
हा तत् वयं कृतवन्तः वा पठितवन्तः वा तत्र? अस्तु अस्तु भगिनि, धन्यवादः धन्यवादः. अहं मम किञ्चित् क्लेशः आसीत् मनसि, धन्यवादः. अस्तु अस्तु, प्रथमतया एतत् कुर्मः पुनस्मरणार्थम्. अतः एव एतत् गृहपाठः, एषः गृहपाठः अहं तं प्रेषितवान्. कथायाः किञ्चित् पुनस्मरणं भवतु इति. अस्तु, शोभा भगिनी किञ्चित् वदति वा?
आं महोदय, यावत्पर्यन्तं वदामि महोदय?
केवलं यत् पाण्डवाः किं कुर्वन्ति, द्रौपदी किं पश्यति.
यदा पाण्डवाः वनवासम् आचरितवन्तः तदा बदरीकाश्रमं नामकम् एकं स्थलम् आगमितवन्तः.
आगतवन्तः.
तत्तु अत्यन्तरमणीयकाननप्रदेशम् आसीत्. तस्य सौन्दर्यम् आस्वादन्तः ते तत् प्रदेशे विहरन्तः द्रौपदीसहिताः.
तस्मिन् प्रदेशे
तत्र द्रौपदी एकं दिनम् एकं सुन्दरं पुष्पम् अपश्यत्. तत् पुष्पम् अन्य कोऽपि प्रदेशतः डयन् आगच्छत्.
डयन् अस्तु, वायुना आनीतं.
वायुना डयन् आगच्छत्.
डयन् इत्युक्ते तत्र किञ्चित् भेदः अस्ति, किन्तु अस्तु. डयन् इत्युक्ते तद् पक्षी यत् करोति तद् ढयति.
मम शब्दकोशः.
अस्तु अस्तु, तत्र फ्लोट् इन् दि एयर् अपि, फ्लोट् इन् दि एयर् अपि फ्लै, तत्र किञ्चित्
वहन् समीचीनं वा महोदय?
किन्तु वायुना वहन् इति प्रायशः तत्र
चिन्तयामि वहन्, परन्तु
वयं सर्वे अवगच्छामः भगिनि, चिन्ता मास्तु, केवलम् उक्तवान् अस्तु.
किं पदम् अस्तु महोदय? द्रौपदी जानीतवती तत् पुष्पं.
ज्ञातवती.
द्रौपदी ज्ञातवती तत् पुष्पं सौगन्धिकं कमलम् इति. ईदृशानि अधिकानि पुष्पाणि अहम् इच्छामि इति सा अचिन्तयत्. अपि च पतिं भीमसेनम् अप्रार्थयत्. सः तादृशानि बहूनि पुष्पाणि आनयत् इति. आनयतु इति अत्र प्रार्थना अस्ति. भीमसेनः गदाधरः सन् प्रस्थानम् अकरोत्. तां दिशं गत्वा गन्धमादनपर्वते अन्वेषणम् अकरोत्. तत्र
तां दिशं
गत्वा गन्धमादनपर्वते अन्वेषणम् अकरोत्.
अस्तु भगिनि, अस्तु, समीचीनं, धन्यवादः भगिनि. अस्तु, धन्यवादः. अस्तु, अग्रे कः वदति? मेहुल् महोदय नमस्कारः. नरेश महोदय वदति वा?
आम् महोदय. पाण्डवाः द्रौपद्याः वने विहरन्ति. द्रौपदी एकं सुन्दरं पुष्पं पश्यति. सा तादृशानि बहूनि पुष्पाणि इच्छन्ति. भीमसेनं वदति. भीमसेनः तदर्थं अत्रिवनं गच्छति. तत्र सः हनुमन्तं पश्यति परन्तु तं न जानाति. वार्तां कृत्वा सः अवगच्छति. तौ तु भ्रातरौ स्तः. तदा तौ आलिङ्गनं कृतः.
अस्तु महोदय, भवान् पूर्ण कथाया पूर्णकथायाः विवरणं दत्तवान्. अस्तु, समीचीनं महोदय, धन्यवादः. समीचीनम्. अस्तु, अग्रे वेणुगोपाल् महोदय वदति वा? प्रिया भगिनी नमस्कारः.
क्षम्यतां,
चिन्ता मास्तु भगिनि. वेणुगोपाल् महोदय वदतु.
पाण्डवाः वनवासम् आचरन्तः द्रौपदी संक्षिप्तेन लिखितवन्तः महोदय, लिखितवान् महोदय.
तदेव पठतु महोदय, चिन्ता मास्तु.
पाण्डवाः वनवासम् आचरन्तः द्रौपदी वायुगम आनीतम् एकं सुन्दरं पुष्पं पश्यति. द्रौपदी भीमसेनं बहूनि अन्यानि तादृशानि पुष्पाणि आनयितुं प्रार्थयति.
तत्र समीचीनं महोदय. तत्र केवलं प्रथमवाक्यं किञ्चित् दीर्घमासीत्. तत्र प्रथमभागः किमासीत्? कः आसीत् प्रथमभागः?
द्रौपदी भीमसेनं भीमसेनं बहूनि
भवतः प्रथम
अस्तु. पाण्डवाः वनवासम् आचरन्तः.
अस्तु, तावदेव. अस्तु
अस्तु,
पाण्डवाः तदेव प्रथमवाक्यम्. अस्तु
अस्तु महोदय.
तादृश आसीत् वा अथवा न
आसीत्? मस्तु महोदय,
केवलं पाण्डवाः वनवासम् आचरन्तः इति
अहं.
अस्तु अस्तु अस्तु. तत्र तत्र क्रियापदं प्रायशः आचरन्तः सन्ति इति.
आचरन्तः सन्ति, अस्तु
सन्ति इति प्रायशः तदा वाक्यम् अस्ति इति अवगच्छामः.
अस्तु महोदय, धन्यवादः. द्रौपदी भीमसेनं द्रौपदी भीमसेनं बहूनि अन्यानि तादृशानि पुष्पाणि आनयितुं प्रार्थयति. तत्कारणेन भीमसेनः तादृशानि पुष्पाणि आनयितुं गच्छति.
तत्र महोदय किञ्चित् तत्र बहु सम्यक् अस्ति. केवलं तत्र कारणेन यत्र अस्ति तत् कारणम् इति भवति, किन्तु तत् इति विशेषणं भवति तत्र. कारणेन अस्ति चेत् तेन कारणेन इति भवति.
तेन कारणेन. अस्तु महोदय, धन्यवादः. मार्गे भीमसेनः एकं कदलीवनं दृश्यति. अग्रे गत्वा सः पश्यति. भेदः किं महोदय? दृश्यति पश्यति भेदः किं?
दृश्यति इति न तत्र उपयोगः न कुर्मः. दृश्यते इति अस्ति आत्मनेपदी धातु, किन्तु परस्मैपदी धातु अस्ति चेत् पश्यति इति एव अस्ति.
पश्यति
तत्र किञ्चित् क्लेशः एव अस्ति, सत्यं महोदय. किन्तु धातु अस्ति दृश् इति धातु, किन्तु रूपमस्ति परस्मैपदी रूपमस्ति पश्यति इति. किन्तु आत्मनेपदी रूपमस्ति दृश्यते इति.
दृश्यते. अस्तु, अग्रे गत्वा सः निद्रितं हनुमन्तं पश्यति. अस्तु महोदय,
अस्तु समीचीनं,
तदेव लिखितम्.
अस्तु अस्तु, समीचीनम्. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा?
आं महोदय.
उषा भगिनी वदतु भगिनि.
पाण्डवाः वनवासम् आचरन्तं द्रौपद्या सहिताः बद्रिकाश्रमं गच्छन्ति स्म ते तत्र रमणीयेषु काननप्रदेशेषु आनन्देन विहरन्ति स्म द्रौपदी कानने द्रौपदी वायुना आनीतम् एकं सुन्दरं सौगन्धिकं पुष्पं पश्यति सौगन्धिकस्य पुष्पस्य सौन्दर्येण आकृष्य द्रौपदी एतादृशानि इतोपि अधिकानि पुष्पाणि आनेतुं स्वस्याः पतिं भीमसेनं प्रार्थितवती स्म अतः
केवलं तत्र प्रार्थितवती तत्र स्म इति वयम् एतावत् न कृतवन्तः किन्तु भवती स्म तत्र किमर्थम् अस्ति कदा उपयोगं कुर्मः कदा न इति अत्र स्म इति न भवति भगिनि किमर्थम् इति वदति वा किमर्थं तत्र प्रार्थयति स्म इति इत्युक्ते सरलरूपेण वदतु
सौगन्धिकस्य पुष्पस्य सौन्दर्येण आकृष्य द्रौपदी एतादृशानि इतोपि अधिकानि पुष्पाणि आनेतुं स्वस्याः पतिं भीमसेनं प्रार्थितवती
हा तत्र स्म इति भवति चेत् अनेकवारं बहुवारं तद् क्रिया भवति इति अहं बाल्ये पाठशालां गच्छामि स्म अहं बाल्यकाले केवलम् एकवारं पाठशालां गतवान् इति न खलु अत्र स्म इत्युक्ते बहुवारं भवति किन्तु अत्र द्रौपदी केवलम् एकवारम् एव पृष्टवती अतः स्म इति मास्तु
धन्यवादः अतः भीमसेनः पुष्पस्य अन्वेषणार्थं गच्छति मार्गे सर्वे प्राणिनः कुतूहलेन भीमसेनं पश्यन्ति भीमसेनः कदलीवनं पश्यति तत्र हनुमान् स्वर्गद्वारम् आवृत्य शयनं कृतवान्
करोति तत्र करोति स्म इति वक्तुं शक्नुमः किन्तु अस्तु कुर्वन् अस्ति अथवा कुर्वन् अस्ति
शयनं कुर्वन्
अस्ति शयनं कुर्वन् अस्ति
अस्ति भीमसेनः तस्य समीपं गत्वा सिंहनादं कृतवान् तदैव महोदय
समीचीनमस्ति धन्यवादः भगिनि बहु समीचीनमस्ति अस्तु अन्य कोऽपि वक्तुम् इच्छति वा
आं महोदय
गीताञ्जलि भगिनि वदतु
यदा पाण्डवा
किञ्चित् उच्चैः वदतु भगिनि
अस्तु महोदय यदा पाण्डवाः वनवासम् अटन्ति वसन्ति च तदा एकदा एके कानने द्रौपदी एकं सौगन्धिकं पुष्पं जिघ्रति पश्यति च
तत्र पुनरेकवारं भगिनि प्रथमभागं
यदा पाण्डवाः वनवासम् अटन्ति
वनवासे अटन्ति अस्तु किन्तु तत्र कुत्र अटन्ति इत्युक्ते वने अटन्ति इति भवति अथवा वनवाससमये प्रायशः तादृश वनवाससमये वने अटन्ति
वने अटन्ति तदा एकदा एके कानने द्रौपदी एकं सौगन्धिकं पुष्पं जिघ्रति पश्यति च
एके कानने द्रौपदी
एकं सौगन्धिकं पुष्पं जिघ्रति पश्यति च.
जिघ्रति जिघ्रति अपि
पश्यति च.
जिघ्रति पश्यति अस्तु. हा तत्र भेदः स्थापयितुम् इच्छति वा अथवा तत्र किमर्थं क्रियाद्वयम् इति न अवगतवान्.
द्रौपदी पश्यति किन्तु अथवा सौगन्ध प्राप्नोति.
अस्तु प्राप्नोति इति तावत् पर्याप्तं खलु. अथवा प्रथमतया पश्यति तदनन्तरं प्राप्नोति इति अस्ति चेत् अपि किन्तु पश्यति अपि प्राप्नोति अथवा किन्तु अस्तु तत्र अस्तु भगिनि. अग्रे
अनन्तरं सा तादृशानि पुष्पाणि इच्छति. अतः सा तस्याः पतिं भीमसेनम् उक्तवती, भवान् मह्यं तादृशानि बहुनानि पुष्पाणि क्षम्यतां महोदय, भवान् मह्यं तादृशानि बहूनि पुष्पाणि आनयतु इति.
तत्र मह्यम् आनयतु. तत्र तत्र मम मनसि किञ्चित् क्लेशः अस्ति भगिनि. तत्र मह्यम् आनयतु इति आम् ददातु इति धानकार्यमस्ति चेत् तत्र चतुर्थी विभक्ति भवति. आनयतु इति तत्र तु कर्मपदं किम् आनयति इति एव अस्ति. तत्र चिन्तित्वा वदामि भगिनि अग्रे. अस्तु तत्र मह्यम् इति तत्र सम्यक् इति सम्यक् नास्ति इति भाति. अन्य कोऽपि जानाति वा अन्यरीत्या?
मम कृते
अस्तु. मम कृते अस्तु समीचीनं, धन्यवादः महोदय. मम कृते बहूनि अनेक पुष्पाणि. समीचीनं महोदय, धन्यवादः नरेश महोदय.
मम कृते धन्यवादः. भीमसेनः तस्य गदया सह तादृशं सुगन्धम् अनुसरितुं गच्छति.
अस्तु अनुसरितुं तत्र अनुसरितुम् इत्युक्ते फालो इति, अनुसरति इत्युक्ते फालो. किन्तु अथवा अन्वेषणं करोति इति वा, तस्य अन्वेषणं करोति इति प्रायशः भवति. किन्तु अनुसरति तत् कुत्र अस्ति इति?
अनुसरति भीमसेनः तस्य.
किन्तु भगिनि अस्तु तत्र अन्वेषणं करोति इति प्रायशः समीचीनम् इति मन्ये. पुष्पस्य अन्वेषणार्थम् अथवा पुष्पस्य अन्वेषणं कर्तुम्.
अस्तु महोदय. गन्धमादपर्वतं गत्वा सः एकं कदलीवनम् आलोकते. किन्तु कदलीवने स्वर्गस्य द्वारं हनुमानेन निरुद्ध करोति.
हनुमानेन इति तत्र
करोति
हनुमान् इति रामशब्दवत् नास्ति तत्र. हनुमत् इति प्रातिपदिकम् अस्ति, हनुमान् इति प्रथमविभक्तिरूपं, कोऽपि वदति वा तृतीयविभक्तिरूपं किम् अस्ति हनुमत् हनुमान् शब्दस्य? हा भवान् भवता हनुमान् हनुमता इति. हा समीचीनं.
विभक्ति किं
तृतीय
किं शब्दवत् हनुमान्?
भवान् शब्दवत् भवत् भवान् भगवत् भगवान् हनुमत् हनुमान्.
हनुमता निरुद्ध करोति.
हनुमता
निरुद्ध स्वर्गस्य द्वारं हनुमता निरुद्ध करोति.
निरुद्धा अस्ति.
निरुद्धा अस्ति.
स्वर्गस्य द्वारम् इति आसीत् खलु?
अस्तु महोदय.
स्वर्गस्य पुनरेकवारं भगिनि.
किन्तु कदलीवने
तत्र स्वर्गस्य द्वारं
हनुमता निरुद्ध
तत्र निरुद्धं द्वारम् इति अस्ति अतः निरुद्धम् इति
निरुद्धम् अस्ति. हनुमानः तत्रैव निद्रितवान्.
हनुमान् तत्र हनुमानः न रामः शब्दवत् नास्ति. हनुमान्
हनुमान् तत्रैव निद्रितवान्. सः इत्युक्ते भीमसेना हनुमस्य पार्श्वं गत्वा उच्चैः
तत्र हनुमतः इति अस्ति. भवतः नाम किम् इति अस्ति खलु?
हनुमतः भीमसेनः हनुमतः पार्श्वे गत्वा उच्चैः शब्दाः करोति.
उच्चैः वदति. उच्चैः वदति.
उच्चैः वदति.
अस्तु भगिनि. अस्तु भगिनि समीचीनम्. अस्तु इदानीं सर्वे कथाम् अवगच्छन्ति इति मन्ये, पुनः स्मरणमपि जातम् इति मन्ये. अस्तु इदानीम् अग्रे गच्छामः. नूतनतया तत्र मेहुल् महोदय अस्ति इति
पश्यामि.
नमस्कारः. नमस्कारः. रघुपति आचार्य महोदय नमस्कारः. अस्तु अन्य कोऽपि अस्ति? मधुसूदन महोदय वा अथवा जयन्त महोदय वा? अस्तु अस्तु अन्य कोऽपि अस्ति इति मन्ये. अस्तु अस्तु इदानीम् अग्रे गच्छामः. तत्र हनुमान् वदति इति ततः इति मन्ये खलु? अस्तु तत्र नरेश महोदय तत्र पठति वा? तत्र हनुमान् वदति पेज् 45 अधोभागे.
हनुमान् वदति अहं व्याधिपीडितः अस्मि, अतः उत्थातुं मम शक्तिः न विद्यते. यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति.
अग्रिम परिच्छेदः अपि तदपि
तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने, तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे, अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति.
अस्तु इदानीं हनुमान् वदति इति ततः किञ्चित् वदतु महोदय.
हनुमान् वदति सः पीडितः अस्ति, उत्थातुं न शक्नोति. पीडितः अस्ति, उत्थातुं न शक्नोति तदा भीमसेनम् अवदत् यदि अवश्यं गन्तव्यम् अस्ति मां लङ्घयित्वा गच्छ।
अस्तु, तत्र तत्र गच्छ इति अस्ति, तत् क्रियापदम् अस्ति, तस्य कर्म तत् सकर् तत्र कर्मपदम् अस्ति वा?
न, कर्मपदं नास्ति। माम्
इति अस्ति, माम् इति कर्मपदं कस्य क्रियापदस्य तत्र? माम् इति द्वितीयविभक्तौ अस्ति खलु? तत्र वाक्ये एकक्रिया एका क्रिया अस्ति अथवा क्रियाद्वयम् अस्ति महोदय? केवलं तर्हि, तदनन्तरं तर्हि मां लङ्घयित्वा गच्छ, तत्र एकं क्रियापदम् अथवा क्रियापदद्वयम्? सत्यक्रियापदं नास्ति किन्तु क्रियाद्वयं
यदि त्वया गन्तव्यम् इच्छति।
न तद् त्यजामः, केवलं तर्हि तस्य अनन्तरं मां लङ्घयित्वा गच्छ इति। त्वा लङ्घयित्वा इति रूपं त्वान्तरूपम् अस्ति खलु महोदय? तद् तस्य प्रयोगः कदा कुर्मः? तत्र पाठशालां गत्वा पाठं पठतु इति, तत्र गत्वा इति क्रिया अस्ति खलु?
क्रिया नास्ति परन्तु
क्रिया इव किमर्थम् अस्ति चेत् तत्र पाठशालां गत्वा इति अस्ति चेत् तत्र गत्वा इति पदस्य पूर्वं पाठशालाम् इति अस्ति, तत् किम् अस्ति पाठशालाम् इति?
मां लङ्घयित्वा हनुमन्तं।
सत्यं महोदय, सत्यं, सत्यं, किन्तु चिन्तयामः एतत् वाक्यं स्वीकुर्मः, अहं पाठशालां गच्छामि, तदनन्तरं तत्र अहं पठामि, वाक्यद्वयमस्ति, तत् मिलित्वा वयं वदामः अहं पाठशालां गत्वा पठामि इति खलु? किन्तु तत्र पाठशालां गच्छामि, तत्र गच्छामि क्रियापदम् अस्ति, तस्य कर्मपदं किम् अस्ति? अहं कर्तृपदं पाठशालां गच्छामि,
पाठशाला कर्मपदम् अस्ति,
कर्मपदमस्ति। अत्रापि सः वदति, हनुमान् वदति, त्वं मां लङ्घयित्वा गच्छ इति, अतः लङ्घयित्वा इति क्रियां सूचयति, तस्य पूर्वं मां यदस्ति तत् कर्मपदम् अस्ति,
मां
लङ्घयित्वा इति,
किं
लङ्घयित्वा, मां लङ्घयित्वा इति। समीचीनं वा?
महोदय,
अस्तु अस्तु, अग्रे।
तदा भीमसेनः वदति, परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने।
भीमसेनः
अवदत्, अहं जानामि परमात्मा देहं स्थिते अस्ति,
देहस्य अन्ते अस्ति अथवा देहस्य बहिः अस्ति, कुत्र अस्ति?
देहस्य अन्ते, देहं व्याप्य देहस्य अन्ते अहं चिन्तयामि.
हा सत्यं, किन्तु व्याप्य इत्युक्ते देहे व्याप्य इत्युक्ते पर्मियेट् पर्वेड् पर्वेड् इति आङ्ग्लभाषायां वदामः. देहे सर्वत्र अस्ति इति, केवलम् एकभागे, केवलं शिरसि अथवा नयने तादृश नास्ति, सर्वत्र अस्ति. देहं व्याप्य अवतिष्ठते इत्युक्ते अस्ति इति, एक्सिस्ट् और् अबाइड् इति अर्थे तादृश. हा अतः देहे सर्वत्र अस्ति सः परमात्मा इति.
अतः
यदि परमात्मा केवलम् एकस्मिन् भागे आसीत्, सः अन्यत् भागस्य उपरि लङ्घयित्वा सः गच्छति, किन्तु सः जानाति तादृशं न कर्तुं शक्नोति इति.
तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे.
हा तत्र कस्य अवमाननं?
परमात्मा
परमात्मनः इति प्रायशः. आत्मन् इति अस्ति, आत्मनः परमात्मनः इति मन्ये. हा तस्य परमात्मा यः अस्ति तस्य अवमाननं कर्तुं न इच्छति,
न इच्छति.
हा समीचीनं महोदय. हा
अन्यथा हनुमान् सागरम् एव त्वां लङ्घयित्वा गच्छे.
हा
अन्यथा अहं हनुमान्
यथा
हनुमान् सागरं लङ्घितवान्
तथा
अहम् अपि कर्तुं शक्नोमि.
अहमपि त्वां लङ्घयित्वा
त्वां लङ्घयित्वा
अग्रे गच्छामि,
गन्तुं शक्नोति,
शक्नोमि. हा
शक्नोमि.
समीचीनं महोदय, धन्यवादः. अस्तु हा अग्रे
महोदय एकः प्रश्नः. अवमाननम् अथवा अवमानं द्वयोः समान अर्थः महोदय?
तत्र अवमाननम् एव अहं संस्कृतभाषायां श्रुतवान् इति मन्ये भगिनि.
अवमानं नास्ति महोदय, अवमानं शब्दं नास्ति महोदय.
अहम् अवमाननम् इति एव श्रुतवान् इति मन्ये.
क्षम्यतां महोदय.
द्वयोः
नमस्कारं महोदय, क्षम्यताम्. अहं बहिः अस्मि अतः पुस्तकमपि पार्श्वे नास्ति, अहं शृणोमि. किन्तु पदद्वयमपि स्तः महोदय.
इति वा? अस्तु धन्यवादः महोदय. अस्तु धन्यवादः. अस्तु अग्रे अन्य कोऽपि प्रश्नः अत्र
महोदय? अवतिष्ठते इत्युक्ते वर्तते.
हा वर्तते इति, एक्सिस्ट् अबाइड् इति.
व्याप्य अवतिष्ठते,
व्याप्य इत्युक्ते पर्वेट्स्, व्याप्यति इति नास्ति. तत्र तत्र व्याप्य इति ल्यबन्तरूपम् अस्ति तत्र. हा अस्तु अस्तु. हा व्याप्य इति ल्यबन्तपदम् अस्ति, क्रियापदं प्रायशः आत्मनिपदी अस्ति इति मन्ये.
व्याप्यते इति
मन्ये. हा कोऽपि जानाति वा? अस्तु हा अस्तु सत्यं भगिनि, तत्र अस्ति क्रियापदं तु अस्ति सत्यं. हा अहं न स्मरामि.
अस्तु धन्यवादः.
हा अस्तु अन्यप्रश्नः अत्र अस्तु हा अग्रे गच्छामः तर्हि तत्र कः वदति प्रिया भगिनी पठितुम् इच्छति वा अस्तु मेहुल् महोदय
हनुमान् पृच्छति
हा तत्र हनुमान् पृच्छति ततः
हनुमान् पृच्छति कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान् इति हनुमान् मम भ्राता रामायणे सः अतिविख्यातः रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं सागरं लङ्घितवान् अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः अन्ते मार्गं प्रयच्छ इति पुनरपि वदति भीमसेनस्य वाक्यं श्रुत्वा हनुमान् तं पृच्छति हनुमान् इत्युक्ते कः किमर्थं हनुमान् सागरं लङ्घितवान् इति वार्तां पृच्छति अनन्तरं भीमसेनः उत्तरं वदति हनुमान् मम भ्राता अस्ति सः भ्राता अस्ति सः रामायणप्रसङ्गे रामायणमध्ये अति विख्यातः इत्युक्ते अति महत्त्वपूर्ण अति प्रसिद्धः अस्ति सः रामस्य पत्नी सीता तयाः अन्वेषणाय सः अति विस्तृतसागरं शतयोजन अधिकं विस्तृतं सागरं सः लङ्घितवान् अहमपि सः तुल्य बलवान् अपि च पराक्रमे अपि च युद्धे अपि अहमपि बलवान् अस्मि इति भीमसेनः अभिमानसह वदति अनन्तरं
तत्र साभिमानम् इत्युक्ते
अनन्तरं सः पुनरेकवारं मया मार्गं ददातु इति
मह्यं
मार्गं ददातु इति पुनरेकवारं वदति
हा तत्र अस्तु बहु समीचीनमस्ति महोदय तत्र हा तत्र तुल्यः कस्मिन् विषये तुल्यः तत्र बले पराक्रमे युद्धे इति अतः सप्तमी विभक्ति भवति अपि तत्र प्रयच्छ इति अस्ति तत्र गच्छ अपि गच्छतु भेदः कः कोऽपि भवान् वदति वा गच्छ गच्छतु अथवा प्रयच्छ प्रयच्छतु भेदः कः
विधिलिङ्ग
न महोदय न तस्य अपेक्षया सरलमस्ति
एकम् आदेशः अस्ति
किमर्थमपि च प्रार्थना
न अस्तु गच्छ गच्छतु प्रिया भगिनी हा प्रिया भगिनी तत्र भवान् इत्यस्य किं भवति भवान् गच्छ अथवा गच्छतु प्रिया भगिनी
गच्छतु भवान् गच्छतु
किन्तु
त्वं गच्छ
हा तावदेव तदेव भेदः अस्ति तत्र यदि भीमसेनः वदति मार्गं प्रयच्छ तस्मिन् मनसि किम् अस्ति भवान् शब्दः अथवा त्वम् इति अतः एव तद् सः परमात्मनः अवमाननं न करोति किन्तु हनुमतः अवमाननं तत्र करोति सः चिन्तयति त्वम् इति
हा
अभिमानेन सः वदति त्वम् इति अतः प्रयच्छ इति एव तत्र अस्ति. हा अस्तु समीचीनमस्ति महोदय. अस्तु प्रिया भगिनी अग्रे वदति वा
महोदय. हनुमान् वदति जरया मम उत्थातुं शक्तिः नास्ति, त्वमेव अनुकम्पया एतत् पुच्छम् अपसार्य गच्छ इति. तावदेव वा?
किञ्चित् अग्रे
अग्रे. भीमसेनः पृच्छे गृहीत्वा एतं क्षम्यतां पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति. ततः सः अवज्ञा वामहस्तेन पुच्छं गृहीतवान्. किन्तु तत् क्षम्यतां पुच्छं वामहस्तेन पुच्छं गृहीतवान् किन्तु तत् पुच्छं किञ्चिदपि न कम्पते. अधुना भीमसेनः पुच्छम् उत्क्षेप्तुं प्रयतते. हनुमान् वदति झटति मम उत्थातुं शक्तिः नास्ति इति. भवान् एव मम पुच्छम् अपसार्य गच्छ इति. भीमसेनः
जरया इत्युक्ते किं? जरा इत्युक्ते
झटिति वा?
हा न न जरा इत्युक्ते
वृद्धत्वर्जितः
न न
ओ वृद्धत्वं
तत्र जरा इति अस्ति
वार्धक्येन.
क्षम्यतां
जरा इति पदमस्ति अत्र
महोदय. न तत्र जरा इति अस्ति इङ्ग्लिश्
शब्दमपि
जरण् आङ्ग्लभाषायां जरण्टालजि इति वृद्धस्य एक शास्त्र अस्ति जरण्टालजि जरा जरा इति तत्र मूल एव संस्कृते एव अस्ति.
अस्तु अस्तु धन्यवादः महोदय. अत्र जरया इति कारणम् अस्ति कारणेन कारणेन
तस्य मम उत्थातुं शक्तिः नास्ति.
अहम् उत्थातुं न शक्नोमि
त्वमेव अनुकम्पया एतत् पुच्छम् अपसार्य गच्छ इति. भीमसेनम् एव पुच्छम् अपसार्य गच्छ इति हनुमान् वदति.
अपसार्य इत्युक्ते किञ्चित् किञ्चित् दूरं कृत्वा
दूरीकृत्वा
अपसर इति कृपया अपसर किञ्चित् अपसरतु कृपया इति. तत् कृत्वा गच्छतु इति
गच्छतु इति.
अपसार्य इति कीदृशपदं
ल्यबन्तं
ल्यबन्तं ल्यबन्तम् इति. समीचीनम् अस्तु अग्रे भगिनि.
तत्र अनुकम्पया
अनुकम्पा इति कृपया इति
कृपया
अनुकम्पा अनुकम्पा अनुकम्पया
अव्ययं
वा वित्पिटि और तादृशार्थे अस्ति.
ओ पदम् अस्ति वा?
किं भगिनि
अव्ययं वा तत्
अनुकम्पया तृतीयविभक्ति अनुकम्पा अनुकम्पया
कम्पया
तत्र यथा जरा जरया आसीत् कम्पति किन्तु अत्र अनुकम्पया इति किञ्चित् भेदः अस्ति. तत् एतद् नाम पदमस्ति अनुकम्पा इति. अस्तु अग्रे भगिनि. भीमसेनः
पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति.
तत्र गृहीत्वा पुच्छे गृहीत्वा इति अस्ति तत्र.
त्वान्तपदमस्ति
तत्र. ग्रहणं कुत्र भवति इति प्रश्नः अस्ति चेत् कुत्र सः गृह्णाति, देहस्य भागं कुत्र गृह्णाति इति. तत्र पुच्छे गृह्णाति इति
अतः
सप्तमी इति अस्ति तत्र.
पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि.
यमसदनम् इत्युक्ते
यमस्य गृहे द्वितीयाविभक्ति
प्रेषयामि इति क्रियापदं. किं प्रेषयामि? अस्तु तत्र यमसदनं प्रेषयामि इति मनसा
चिन्तयति. तृतीयविभक्ति
मनसा
चिन्तयति. ततः सः वामहस्तेन पुच्छं गृहीतवान्.
तत्र अवज्ञया
एतत् चिन्तित्वा भीमसेनः अवज्ञा इत्युक्ते अज्ञानं वा?
न न, अवज्ञा इत्युक्ते कण्टेम्प्ट् इति, डिस्रिगार्ड्
इति.
कण्टेम्प्ट् डिस्रिगार्ड् तस्य किञ्चित् भेदः अपि. एतत् मा चिन्तयतु तदपि डिस्रिगार्ड् भवति. एतदस्ति एतद् अन्यत् अस्ति किन्तु इति तत्र डिस्रिगार्ड् इत्युक्ते डोण्ट् सी डोण्ट् थिङ्क् अबौट् दट् अपि भवति किन्तु अत्र अस्ति कण्टेम्प्ट् इति.
वामहस्तेन पुच्छं गृहीतवान्.
तत्र बहुत्र तृतीयविभक्ति भवति भगिनि, अहं न जानामि किमर्थम्. अस्तु
किन्तु तत् पुच्छं किञ्चिदपि न कम्पते. किञ्चिदपि तत् पुच्छं
अत्र इतः ततः न गच्छति.
एकस्मिन्
एव
भवति. अधुना भीमसेनः बाहुभ्यां पुच्छम् उत्क्षेप्तुं प्रयतते.
उत्क्षेप्तुं प्रयतते इत्युक्ते
प्रयत्नं
कुरुते. प्रयत्नं करोति. सत्यं. तत्र प्रथमतया सः किं कृतवान्? वामहस्तेन. अतः एव अवज्ञया इति आसीत्. इदानीं सः
बाहुभ्यां द्वयोः बाहु सहितम् उपयुज्य पुच्छम् उत्क्षेप्तुं प्रयतते.
उत्क्षेप्तुम् इत्युक्ते लिफ्ट् अथवा रेज्
उत्क्षेप्तुं प्रयतते.
समीचीनं भगिनि. अस्तु इदानीम् अग्रे कः वक्तुम् इच्छति? तत्र वेणुगोपाल् महोदय प्रयत्नं करोति वा?
आम् महोदय. अस्तु. तदा हनुमान् स्वस्य परिचयम् उक्तवान्. भीमसेनः भक्त्या तम् नमस्कृतवान्. हनुमान् प्रीत्या तम्
त्रीणि
वाक्यानि सन्ति.
तत्र तथापि पुच्छं न कम्पते इति अस्ति महोदय. पूर्वं
पठामि वा?
तथापि पुच्छं न कम्पते इति ततः महोदय.
ओ अस्तु. कुत्र अस्ति महोदय?
तत्र उत्क्षेप्तुं प्रयतते इति अस्ति. तदनन्तरं तृतीयौ पङ्क्तौ थर्ड् लैन् पूर्वस्मिन् परिच्छेदे
अन्ते सह हनुमन्तौ नमस्कृत्य
अस्तु 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 भवान् अग्रे पठतु अतः अस्तु तत्र रघुपतिमहोदय वदति वा
तथापि पुच्छं न कम्पते भीमसेनस्य शरीरं खिद्यते पुनः पुनः स्विद्यते पुनः पुनः प्रयत्नेनापि सः विफलः जायते सः नितरां लज्जते अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते कपिशार्दूल मां क्षमतां वानररूपदृक् भवान् सिद्धः देवः गन्धर्वः वा कः इति वदतु अहं शिष्यवत् भवन्तं पृच्छामि कृपया वदतु इति भीमसेनः बाहुभ्यां पुच्छं गृहीतुं प्रयत्नं करोति तदा पुच्छ किञ्चिदपि न किञ्चिदपि न कम्पते किञ्चिदपि तस्य अपसर्तुं न अशक्यः भवति प्रयत्ने अधिकप्रयत्नेन श्रान्तः जातः भीमसेनस्य शरीरे स्वेदबिन्दुः आगताः स्वेदबिन्दवः सः पुनः पुनः करोति विफलः भवति सः लज्जाम् अनुभवति सः स ज्ञातवान् यत् अन्ते फैनलि कृत्वा अपि सः विफलः जातः तेन प्रयत्नैः विफला जाता अन्ते सः ज्ञातवान् यत् कोऽपि साधारणकपि नास्ति एषः बलवान् अस्ति अतः सः प्रार्थयति क्षम्यत् मां क्षामयतु इति क्षमयतु इति क्षमयतु वा क्षम्यतां भवान् शक्तिशाली अस्ति अतः अहं मन्ये भवान् देवगन्धर्व वा इति अहं चिन्तयामि कृपया भवतः परिचयं ददातु परिचयं करोतु ददातु
इदानीमेव सः भवान् इति चिन्तयति पूर्वं केवलं त्वम् इति चिन्तितवान् इदानीं सः भवान् इति चिन्तयति
महोदय एकः प्रश्नः अस्ति पुनः पुनः विसर्ग कथम् उच्चारणं
करोमि पुनः 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 पुनः
पुनः पुनः उपमानीय विसर्गसन्धि भवति पुनः पुनः एफ् भवति पुनः पुनः
पुनः पुनः
उपद्मानीय भवति
उपद्मानीयं
पुनः पुनः नफ् भवति नफ्
क्षम्यतां क्षमतां भेदः
हा अस्ति भगिनि अस्ति तदेव अहमपि चिन्तितवान् किम् अस्ति इति तद् अन्यलकारः इति मन्ये इदानीं न स्मरामि कोऽपि जानाति वा क्षमताम् इति किं तत्र प्रायशः तद् लोट्लकारः एव अस्ति तत् क्षमताम् इति
लोट्लकारे वन्दतां यथा अस्ति वा महोदय
तदेव अस्ति इति
प्रथमपुरुषे
परन्तु
एतत् एतत् तु हा एतत् हा एतत् एतत् प्रथमपुरुषे भवान् इति एव अस्ति हा
क्षमतामपि अस्ति क्षम्यतामपि अस्ति
अतः अतः मम मनसि एतत् हा अहं कुत्रापि लिखितवान् अस्मि एतद् रूपं किम् इति इदानीं न स्मरामि किन्तु अग्रिमवर्गे वदामि हा
क्षम्यतां लोट्लकारे कर्मणि अस्ति महोदय क्षम्यताम्
अस्तु क्षमतां किमस्ति
क्षमतां किमस्ति
कर्तरि अस्ति महोदय
महोदय एतत् लोट्लकार अस्ति क्षमतां क्षमेतां क्षमन्तां क्षमस्व क्षमेतं क्षमेतां क्षमध्वं क्षमै क्षमावहि क्षमामहे
आत्मनेपदिरूपमस्ति अस्तु तदेव अहं लोट्लकार अस्तु तत् तदेव अस्ति अस्तु महोदय धन्यवादः अस्तु अहम् एतत् परिशीलितवान् हा क्षम्यताम् इति वयं वदामः किन्तु तत्र क्षमताम् इति अस्ति किमर्थम् इति किन्तु हा अस्तु महोदय धन्यवादः उषा भगिनी समीचीनं वा इदानीं
क्षमतां कर्मणि प्रवे लोट्लकार मध्यमपुरुष अस्ति
क्षमताम्
आत्मनेपदिरूपमस्ति कर्मणि आत्मनेपदिरूपमस्ति आत्मनेपदिरूपं कर्तव्य अपि भवति
प्रथमपुरुष
एकवचनम् एकवचनं भवान् क्षमताम् इति उषा भगिनी समीचीनं
धन्यवादः
अस्तु महोदय रघुपति महोदय अस्तु भवतः उत्तरदायित्वमेव आसीत् भवान् सम्यक्तया उक्तवान् धन्यवादः
न जातवान् दृष्ट्वा
अस्तु समीचीनमेव अस्ति हा अस्तु अग्रे वदतु महोदय अहं ओ अस्तु सर्वं कृतवान् वा अस्तु शिष्यवत् भवन्तं पृच्छामि कृपया वदतु इति अस्तु हा इदानीं वेणुगोपाल् महोदय वदति वा अग्रे पठति वा
आम् आं महोदय तदा हनुमान् स्वस्य परिचयम् उक्तवान् भीमसेनः भक्त्या तं नमस्कृतवान् हनुमान् प्रीत्या तम् आलिङ्गितवान् ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालशरीरं दर्शितवान् विशालं शरीरं दर्शितवान् अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अभवत् तदनन्तरं हनुमान् उक्तवान् भीमसेनस्य भीमसेनस्य नमस्कृतवान् नमस्कृत्य भीमसेनम् आलिङ्गितवान् हनुमान् भीमसेनम् आलिङ्गितवान् अनन्तरं रामावतारे यादृशी शरीरं विशालशरीरम् अस्ति यादृशं शरीरमस्ति तादृशं शरीरं पुनः दर्शितवान् अनन्तरं अन्तर्हितः अभवत्
तत्र आशीर्भिः अनुगृह्य
आशीर्भिः इति पदं किं पदमस्ति महोदय
तृतीयविभक्तिः अस्ति
बहुवचन
सकारान्तशब्दः इति मन्ये
प्रतिपादिकं किम् अस्ति महोदय प्रातिपदिकम्
आशिष् इति मन्ये सकारान्तशब्दः इति चिन्तयामि आशिर्भिः इति तृतीयविभक्ति अस्तु महोदय अनुग्रहणं कृत्वा सः अन्तर्हितः अभवत्
अन्तर्हितः अभवत्
अस्तु हा प्रश्नः अस्ति वा तत्र
शिष्यवत् इत्युक्ते किम्
अहं भवतः शिष्य इति चिन्तयतु
शिष्य इति चिन्तयतु
शिष्य अहं भवतः शिष्यः इति चिन्तयतु अतः मम प्रार्थनां स्वीकरोतु इति
धन्यवादः
अहं शिष्यवत् भवन्तं पृच्छामि शिष्यस्य प्रश्नः इति चिन्तयित्वा अथवा प्रार्थना शिष्यस्य प्रार्थना इति चिन्तयित्वा अनुग्रहणम् अनुगृह्णातु इति
धन्यवादः
अस्तु अन्यः प्रश्नः अत्र तत्र भवान् शब्दस्य किं का विभक्ति हा समीचीनं भगिनि हा भवती जानाति खलु इदानीम् इदानीं भवती गीताञ्जलि भगिनि वदतु भवान् इति पदस्य का विभक्ति भवती जानाति इति भवान् भवन्तं तृतीया अस्ति
तृतीया
भवता भवता कोऽपि वदति वा चतुर्थी किमस्ति भवत् शब्दस्य
भवते
समीचीनं हा अपि सप्तमी इदानीं तदेव भवति किन्तु ह्रस्वैकारः
महोदय अत्र आशिष् अस्ति तत् सकारान्त स्त्रीलिङ्ग अस्ति महोदय आशीः आशिषौ आशिषः इति आशिषा आशीर्भ्याम् आशीर्भिः इति स्त्रीलिङ्ग अस्ति
सकारान्तपदम् अस्ति
सकारान्तपदं स्त्रीलिङ्ग हलन्त
हलन्तपदं हा एतदेव वयं गीतासोपाने द्वितीयभागे एतत् सर्वं पश्यामः
आशीः
समीचीनं महोदय धन्यवादः अस्तु अन्यप्रश्नः अस्तु हा इदानीम् अग्रे गच्छामः इदानीम् आत्मनेपदी धातूनां परिचयः जातः तत्र परस्मैपदी धातूनां ति इति अन्ते अस्ति किन्तु आत्मनेपदी धातूनां ते इति अस्ति तावदेव अहं बहु तत्र भेदः किमपि प्रयोगावसरे भेदः किमपि नास्ति हा केवलं रूपभेदः तदेव अग्रे गत्वा पश्यामः तत्र हा शोभा भगिनी अग्रे तत्र पठति वा तत्र अग्रिमपुटे
एतानि
वाक्यानि
एतानि वाक्यानि सावधानतया उच्चैः पठत परिशीलयत च अर्जुनः पृच्छति मूर्खः शोचति अग्निः ज्वलति अहितः निन्दति एषा अभिनन्दति एतेषु वाक्येषु क्रियापदेषु परस्मैपदी धातूनां रूपाणि प्रयुक्तानि सन्ति एतानि सर्वाणि रूपाणि लट् लकारस्य प्रथमपुरुषैक वचनरूपाणि अग्रे
अन्यदपि पठतु भगिनि
कृष्णः भाषते पण्डितः मन्यते सूर्यः प्रकाशते श्रेयः विद्यते सः वर्तते एतेषु वाक्येषु क्रियापदेषु आत्मनेपदी धातूनां रूपाणि प्रयुक्तानि सन्ति
इति. तत्र प्रथमभागे किम् अस्ति इत्युक्ते परस्मैपदी धातूनां रूपाणि तस्य प्रयोगं कृतम् अस्ति. द्वितीयभागे आत्मनिपदी धातूनां तस्य प्रयोगम् अत्र अस्ति. तत्र भाषते, मन्यते, प्रकाशते, अतः अन्ते ते इति भवति. किन्तु यद् यावद्रूपं यत् रूपं वयं पूर्वं दृष्टवन्तः तत्र ति इति पठति, गच्छति इति, अन्ते ति इति अस्ति. तावदेव भेदः आत्मनिपदी धातूनां परस्मैपदी धातूनां. तदपि क्रियापदम् अस्ति, तस्यापि रूपाणि नवरूपाणि सन्ति. पुरुषभेदेन अपि वचनभेदेन, प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः अपि एकवचन, द्विवचन, बहुवचन, अतः नवरूपाणि सन्ति. आत्मनिपदीय क्रियापदस्य अपि एतत् केवलं वर्तमानकालस्य लट्लकारः इति वदामः. अस्तु, अग्रे तत्र उषा भगिनी अग्रे पठति वा अवधेयम् इति?
आम् महोदय. अवधेयं क्रियापदस्य मूलं धातुः, यथा पठति इत्यस्य क्रियापदस्य मूलं पट् इति धातुः. धातवः त्रिविधाः सन्ति, परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः च इति. पट्, लिक्, क्रीड्, मिल्, गम् इत्यादयः धातवः परस्मैपदिनः. वन्द्, एद्, लब्, ईक्ष्, लज् इत्यादयः धातवः आत्मनेपदिनः. परस्मैपदीनां धातूनां लट्लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति इति श्रूयते, यथा पठति, लिखति, शोचति. आत्मनेपदीनां धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ते इति श्रूयते, यथा वीक्षते, लज्जते, कम्पते. उभयपदीनां तु धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति अथवा ते. एतदुभयमपि श्रूयते, यथा करोति अथवा कुरुते, याचति अथवा याचते, जानाति अथवा जानीते
इति अस्ति. समीचीनं भगिनि. अस्तु, तत्र किं किम् अस्ति इति पश्यामः. तत्र एकपदम् उपरि अपि आगतम् आसीत्, प्रथमपुरुषैकवचनरूपाणि इति. तत् किमपि नास्ति, तद् केवलं वदति रूपं कीदृशम् अस्ति. प्रथमपुरुषः अपि वचनं किम्? एकवचनं. तावदेव तादृश तद्रूपमेव दत्तमस्ति उपरि. प्रथमपुरुष एकवचनरूपमेव दत्तमस्ति इति. अस्तु, तत्र क्रियापदस्य मूलं धातु इति वदामः. तत्र पठति इति पठ् इति धातुः अस्ति. तत्र धातवः त्रिविधाः सन्ति. त्रिविधाः इत्युक्ते धातवः त्रिविधाः सन्ति. तत्र सम्बन्धः कः? धातवः त्रिविधाः, त्रिविधाः किम् अस्ति, विशेष्यं वा विशेषणं वा?
विशेषणम्.
विशेषणम् वयं साधारणतया विशेषणं पूर्वं भवति, विशेष्यम् अग्रे भवति. किन्तु अत्र धातवः विशेष्यम् अस्ति, त्रिविधाः अग्रे विशेषणम् अस्ति. तत्र परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः इति त्रैविध्यम् अस्ति. परस्मैपदिनः तत्र उदाहरणं किं किम् अस्ति? पट्, लिक्, क्रीड्, मिल्, गम् इति इत्यादयः धातवः परस्मैपदिनः इति वदामः. तस्य रूपं तत्र किं भवति? गच्छति इति एव भवति, ति एव भवति अन्ते. वन्द्, एद्, लब्, ईश्, ईक्ष्, लज् इति तत्र धातवः आत्मनेपदिनः सन्ति. तत्र ते इति एव भवति, भाषते, मन्यते, प्रकाशते, विद्यते, वर्तते. अतः क्रियापदं दृष्ट्वा वयं वक्तुं शक्नुमः एतत् क्रियापदम् आत्मनिपदी अस्ति वा अथवा परस्मैपदी क्रियापदम् अस्ति वा. किन्तु ये उभयपदी धातवः अपि सन्ति, तत्र तदेव तत्र अन्ते दत्तमस्ति. उभयपदी धातूनां ति अपि भवति रूपं, ते रूपमपि भवति. अतः तत्र करोति कृ धातुः, तस्य करोति इति परस्मैपदी रूपम् अस्ति, कुरुते इति आत्मनिपदी रूपम् अस्ति, याचति इति परस्मैपदी रूपम् अस्ति, याचते इति याचते इति परस्मैपदी रूपम् अस्ति, याचते इति आत्मनिपदी रूपम् अस्ति, जानाति जानीते. अतः तत्र उभयपदी धातुः अस्ति चेत् रूपद्वयमपि भवति तत्र. हा एकः एकं तु वदामि, केवलं क्रियापदं दृष्ट्वा वयं न वक्तुं शक्नुमः यत् तद् उभयपदी धातुः अस्ति न वा इति. अतः तत्र केवलं किं पाणिनेः धातुपाठः इति किमपि दृष्ट्वा एव वक्तुं शक्नुमः यदि तद् उभयपदी धातुः अस्ति न वा. यद्रूपम् अस्ति परस्मैपदी धातुः इति वक्तुं शक्नुमः, आत्मनिपदी धातुः अस्ति न वा इति वक्तुं शक्नुमः क्रियापदं दृष्ट्वा, अस्ति इति वक्तुं शक्नुमः. किन्तु अन्यद् नास्ति, उभयपदी भाषते इति अस्ति, तद् उभयपदी अस्ति न वा इति केवलं भाषते इति दृष्ट्वा न वक्तुं शक्नुमः. आत्मनिपदी तु अस्ति, अतः तत्र अन्वेषणं करणीयमस्ति यदि उभयपदी धातुः अस्ति न वा इति प्रश्ने सति. अस्तु, तत्र अग्रिम तु बहु सुलभः अस्ति अग्रिम अभ्यासः, किन्तु
एकः परस्मैपदिनः पदिन् नकारान्तशब्दमस्ति महोदय, प्रातिपदिकं पदिनौ पदिनः आत्मन् शब्दवत् महोदय
इति चिन्ति मन्ये भगिनी.
बहुवचने अस्ति अतः अहं चिन्तयामि नकारान्तशब्दमस्ति.
नकारान्तशब्दम् इति पदिन् आत्मन् शब्द आत्मनः
आत्मन् आत्मा भवति प्रथमविभक्तौ.
तत्र द्रष्टव्यमस्ति भगिनि, प्रश्नः सम्यक् एव अस्ति. दृष्ट्वा वदामि भगिनि. समीचीनम्, अस्तु. तत्र द्वितीय अभ्यासः यद् अस्ति तस्मिन् पुटे तत्र किमपि कापि समस्या नास्ति इति भाति. तत्र सुलभतया वक्तुं शक्नुमः यद् आत्मनिपदी क्रियापदमस्ति, यत् परस्मैपदी क्रियापदमस्ति इति. अतः किञ्चित् अग्रे गच्छामः. प्रथमतया रूपम् आत्मनेपदी धातूनां रूपाणि कीदृशानि भवन्ति इति पश्यामः. तत्र अग्रिमपुटे यदस्ति तत्र वंशी सदा भगिनी पठति वा तत्र अग्रिमपुटे
धातोः लट् लकारे रूपाणि एवं भवन्ति. प्रथमपुरुषः एधते एधेते एधन्ते. मध्यमपुरुषः एधसे एधेथे एधद्वे. उत्तमपुरुषः एधे एधावहे एधामहे
इति अस्ति. तत्र किं किं तत्र वक्तुं शक्नुमः? तत्र पठति पठतः पठन्ति, पठसि पठतः पठत, पठामि पठावः पठामः इति अस्ति. अत्र तयोः मध्ये कः भेदः इति किं?
तत्र अत्र आत्मनेपदीरूपाणि सन्ति.
तत्र किं भवति, पठामि तत्र सर्वत्र इकारः अस्ति अन्ते.
आं महोदय, ओ सर्वत्र एकारः. आं महोदय,
अत्र सर्वत्र एकारः अस्ति. एकारः अस्ति, तत् प्रथमम् अस्ति. अन्यत् किमपि किं वक्तुं शक्नुमः? बहुवचने किं भवति तत्र प्रथमपुरुषे बहुवचने? एधन्ते इति अस्ति, पठन्ति इति तत्र पठन्ति इति अस्ति, तत्र नकारः अस्ति खलु, पठति पठन्ति, केवलम् इन् इति मध्ये स्थापयित्वा एकवचनतः बहुवचनरूपं कर्तुं शक्नुमः, यथा पठति पठन्ति, एदते एदन्ते इति खलु. अपि पठसि अस्ति, अत्र किम् अस्ति, एदस्य इति अस्ति, अतः मध्यमपुरुष एकवचनरूपं मनसि स्थापयितुं सुलभः अस्ति खलु. अस्तु, तदनन्तरं नूतनं एतद् एतद्वे इति अस्ति, तत्तु अस्माभिः न दृष्टं पूर्वं खलु, क्रियापदे द्व इति न दृष्टम्. अतः यदि क्रियापदे द्वे इति अस्ति चेत् प्रायशः तद् आत्मनेपदी क्रियापदम् इति जानीमः इति स्थापयतु. तदनन्तरम् एधे, तत्र किं भवति, पठामि इति स्थाने तत्र पठामि, एधे एदमे इति नास्ति, किन्तु एधे एव अस्ति, तत्र मकारः नास्ति. द्विवचने उत्तमपुरुषे वकारः अस्ति, एदावहे इति अस्ति, अपि पठावः पठामः, तत्र पठावहे इति एदावहे इति अस्ति, तदनन्तरम् एदामहे इति अस्ति, मकारः अस्ति बहुवचने इति वक्तुं शक्नुमः खलु. अस्तु, इदानीं किं कुर्मः, तत्र किञ्चित् एव अभ्यासं कुर्मः, तत्र तत्र केवलम् एतत् एव कोष्टकं दृष्ट्वा अभ्यासं कुर्मः, तदनन्तरम् अग्रे गच्छामः. तत्र एतत् रूपं मनसि स्थापनीयम् अस्ति इति कृत्वा अत्र एकमेव इदानीं कुर्मः. तत्र गीताञ्जलि भगिनी, भवती एव वदतु, तत्र वर्तते इति रूपं किं भवति इति. इति अस्ति समीचीनं. अग्रे प्रिया भगिनी, मोदते इति.
मोदते, मोधेते, मोधन्ते प्रथमपुरुषः, मध्यमपुरुषः मोधसे, मोधेथे, मोधद्वे, उत्तमपुरुषः मोधे, मोधावहे, मोधामहे.
समीचीनम्. भगिनी किञ्चित् उच्चैः वदतु भगिनी, न श्रूयते सम्यक्तया.
महाप्राणं, ध महाप्राणं खलु, मोदते, मोदेते, मोदन्ते, मोदसे, मोदेते, मोदद्वे, मोदे, मोदावहे, मोदामहे.
समीचीनं भगिनि. अस्तु, अग्रे नरेश महोदय, अग्रे वर्धते.
वर्धते, वर्धते, वर्धेते, वर्धन्ते, वर्धसे, वर्धेथे, वर्धध्वे, वर्धे, वर्धावहे, वर्धामहे.
इति अस्तु. शोभा भगिनी, शोभते.
करोमि महोदय. किन्तु एधते पदस्य अर्थं किम् अस्ति महोदय?
एतते
वर्धते, वर्धते,
वर्धते एव अस्ति वा? अस्तु महोदय, धन्यवादः. शोभते, शोभेते, शोभन्ते, शोभसे, शोभेथे, शोभध्वे, शोभे, शोभावहे, शोभामहे.
समीचीनं भगिनि. अस्तु, अग्रे मेहुल् महोदय, तत्र डायते,
डायते
डायते,
प्रथमपुरुषः दायते दधेते दधन्ते
दायते दायते
दायते दयेते दयन्ते प्रथमपुरुषः मध्यमपुरुषः दयते दयेथे दयध्वे उत्तमपुरुषः द्वे दयावहे दयामहे
हा इति अस्ति समीचीनं महोदय अस्तु उषा भगिनी अग्रे तत्र
महोदय दयते दयते अर्थं किं महोदय
पक्षी आकाशे डयते
उड्डयते
डयते हा इति अस्ति हा अस्तु
भाषते
हा
भाषते भाषेते भाषन्ते भाषसे भाषते भाषद्वे भाषे भाषावहे भाषामहे इति
इति अस्ति समीचीनं भगिनि अस्तु वेणुगोपाल महोदय वन्दते इति
अस्तु महोदय प्रथमपुरुषः वन्दे वन्देते वन्दन्ते
वन्दे किमर्थं वन्दे
वन्दे इत्युक्ते
वन्दते इति प्रथमपुरुष ए दत्ते इति अस्ति
वन्दते अस्तु वन्दते वन्देते वन्दन्ते मध्यमपुरुषः वन्दसे वन्धेते वन्दद्वे उत्तमपुरुषः वन्दे वन्दावहे वन्दामहे
हा समीचीनं महोदय अस्तु अग्रे रघुपति महोदय तत्र प्रकाशते
प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशसे प्रकाशेते प्रकाशद्वे प्रकाशे प्रकाशावहे प्रकाशामहे
हा समीचीनं हा अस्तु अग्रे हा एतावत् हा वंशीसुधा भगिनी न कृतवती अस्तु तत्र पलायते इति
पलायते महोदय
हा
पलायते पलायते पलायेते पलायन्ते पलायसे पलायेथे पलायध्वे पलाये पला पलावहे पलायवहे
तत्र पलायते इति अस्ति उत्तमपुरुषरूपम् एकवारं वदतु
पलाये
पलाये
पलायवहे
पलायवहे
पलायावहे पलायामहे
तत्र एदते इति अस्ति एदे तदनन्तरम् एधावहे इति अस्ति
आं महोदय
अतः पलायावहे पलायामहे इति अस्तु कः कः एतावत् न उक्तवान् सर्वे उक्तवन्तः वा अथवा कोऽपि न उक्त वा मध्ये अस्तु कः
श्रीनिवास
हा वद वक्तुम् इच्छति वा महोदय अस्तु अस्तु हा अस्तु एतत् करोतु महोदय जायते इति
जायते जायते जायन्ते जायते जायते जायन्ते जाये जायामहे जायामहे
हा समीचीनं महोदय अस्तु समीचीनं हा अस्तु अन्य कोऽपि सर्वे उक्तवन्तः इति मन्ये अस्तु हा अग्रिमवर्गे वयं किं कुर्मः अत्र नामपदमपि उपयुज्य वदामः अत्र अस्तु तत्र हा किं कुर्मः किञ्चित् एव समयः अस्ति तत्र हा अस्तु एतदेव यदस्ति तद् पठामः तत्र अधोभागे यदस्ति तद् किञ्चित् पठितुं शक्नुमः इति मन्ये अस्तु तत्र कः एतावत् न पठितवान् हा गीताञ्जलि भगिनी तत्र किञ्चित् पठति वा तत्र अधोभागे उच्चैः पठत इति यत् अस्ति
अभ्यासेन ज्ञानं वर्धते
हा तत्र किम् अस्ति अभ्यासेन ज्ञानं वर्धते सर्वं सर्वे अवगच्छन्ति वा हा अस्तु समीचीनम् अस्तु द्वितीयवाक्यं
कामात् क्रोध जायते कामस्य क्रोधः उत्पन्न भवति
कामात् इति तत्र पञ्चमी अस्ति
अस्तु महोदय
हा
पञ्चमी किन्तु अर्थ
कामात् क्रोधः
उपजायते
हा भवति हा तस्य हा प्रथमं काम प्रथमं तत्र कामः अस्ति तदनन्तरं क्रोधः अस्ति इति अग्रे
उत्पन्नः जीवः म्रियते
हा
यदि जीवः भवति तदनन्तरं म्रियते
अतः यस्य जन्म अस्ति तस्य मरणमपि अस्ति इति
यस्य जन्म अस्ति यस्य जन्म अस्ति तदा
तस्य मरणम् अपि अस्ति
यस्य जन्म अस्ति अथवा यस्य जन्म अस्ति
हा पुल्लिङ्गे पुल्लिङ्ग वा अथवा नपुंसकलिङ्गे वा इति वा
आं महोदय
अहं चिन्तयामि पुल्लिङ्गे अस्ति इति प्रायशः नपुंसकलिङ्गे अपि अस्ति
जन्म अस्ति
हा प्रायशः रूपद्वयम् अस्ति इति
नकारान्तशब्दं जन्मन्
तत्र प्रायशः जन्मन् इति अस्ति चेत् प्रायशः तद् नपुंसकलिङ्गरूपम् अस्ति इति मन्ये जन्म अपि अस्ति इति चिन्तयामि भगिनि जन्म केवलं जन्म इति वा हा द्वयमपि अहं दृष्टवान् इति मन्ये जन्म अपि जन्म हा किन्तु पुनः दृष्ट्वा वदामि भगिनि हा अस्तु अग्रे हा अग्रे कः वदति मेहुल् महोदय वदति वा अग्रे
हस्तात् ताण्डिवं प्रंसते पञ्चमं भक्तः ईश्वरं भजते जीवः हस्तात् ताण्डिवं सरति पतति
ड्राप् इति
भक्तः ईश्वरं भजते जीवः सुखं कामयते कामयते इच्छति इच्छति
इच्छति समीचीनं समीचीनम् अस्तु अस्तु हा धन्यवादः अस्तु अन्य कोऽपि तत्र नरेश महोदय वदति वा
आं महोदय सः अमृतत्वाय कल्पते अमृतत्वाय चतुर्थी विभक्तिः कल्पते इच्छति
कल्पते इत्युक्ते क्रियेट् इति
क्षेत्रज्ञः किं भाषते श्रद्धावान् ज्ञानं लभते श्रद्धावान् ज्ञानं प्राप्नोति
प्राप्नोति इति अस्ति समीचीनम् अस्तु
ईश्वरः सर्वत्र वर्तते ईश्वरः सर्वत्र अस्ति
हा इति अस्ति हा समीचीनम् अस्तु अग्रे उषा भगिनी वदति वा अग्रे
आं महोदय अभिमन्युः चक्रव्यूहं वीक्षते पश्यति चक्रव्यूहम् अभिमन्युः चक्रव्यूहम् पश्यति भीष्मः सर्वान् क्षमते क्षमते क्षम्य सर्वान् क्षमते भीष्मः सर्वान् क्षमते
अर्थः सर्वे अवगच्छन्ति इति
किञ्चित् कष्टं सहते सञ्जयः युद्धम् अवलोकते
अवलोकते इत्युक्ते पश्यति इति सर्वमपि दृष्टवन्तः
कृष्णः अश्वान् सेवते
सेवते इत्युक्ते
सेवां
सर्व् इति अर्थे
योधः युद्धार्थं स्वरते स्वरते लैक् हरिय लैक्
त्वरया गच्छन्ति त्वरया गच्छन्ति इति युद्धार्थं त्वरया गच्छति गच्छति समीचीनम् अस्तु तत् अस्तु अत्र समयः जातः किन्तु वयम् आत्मनिपदि धातूनां रूपाणि दृष्टवन्तः अद्य नवरूपाणि अपि दृष्टवन्तः अग्रिमवर्गे तस्य अभ्यासः भवति तत्र नामपदमपि तस्य संयोजनं कृत्वा अभ्यासं कुर्मः अस्तु इदानीं विरमाम सर्वेभ्यो नमः
धन्यवादः
धन्यवादः महोदय
धन्यवादः नमस्कारः